एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेपाली कांग्रेस दलस्य संसदीय दलस्य नेतृश्चयनाय अद्य निर्वाचनम् सम्पद्यमानम् वर्तते। नेतृश्चयनाय अद्य प्रातः अष्टवादनात् दशवादनम् यावत् सिंहप्रासादवर्तिनी संसदीय दल कार्यालय परिसरे मतदानमिदम् सम्पद्यमानम् वर्तते। कांग्रेस संसदीय दलस्य नेत्रे प्रधानमन्त्रिणा दलसभापतिना च शेरबहादुर देवाभिधेन, दलस्य महामन्त्रिणा गगन कुमार थापा इत्यनेन च प्रत्याशिता प्रस्तुता अस्ति। सभापतेः देवाभिधस्य प्रत्याशितायाः प्रस्तावकः वरिष्ठ नेता रामचन्द्र पौडेलः, समर्थकश्च दलस्य उपसभापतिः पूर्णबहादुर खड्का वर्तेति। एवमेव महामन्त्रिणा थापाविधस्य प्रत्याशितायाः प्रस्तावकः नेता डाक्टर शेखर कोइराला, समर्थकौ च उपसभापतिः धनराज गुरूङ, महामन्त्री विश्वप्रकाश शर्मा च स्तः। सिंहप्रासादस्थिते कांग्रेस संसदीय दलस्य कार्यालये ह्यः प्रत्याशितायाः पंजीकरणमनु एतौ राष्ट्रस्य वर्तमानावश्यकतायाः जनेच्छायाश्चानुसारेणैव आत्मभ्याम् प्रत्याशिता प्रस्तुतेति अतर्कयताम्। सभापतेः देवाभिधस्य समर्थकः दलस्य वरिष्ठ नेता पौडेलः राष्ट्रस्य वर्तमानावश्यकतायाः अनुसारेण सर्वान् सम्मेल्य नयनक्षमाय अनुभवनेतृत्वाय सभापतेः देवाभिधस्य प्रत्याशितास्तीति अवोचत्। सभापतेः देवाभिधस्य समर्थका दलस्य उपसभापति खड्का संविधानस्य रक्षायै क्रियान्वयनाय राजनीतिक स्थायित्वाय राष्ट्रस्य उन्नति प्रगत्योः द्रुतगत्या अग्रेवर्धनाय दलस्य हिताय च सभापतेः देवाभिधस्य नेतृत्वम् आवश्यकमस्तीति प्रत्यपादयत्। संसदीय दलस्य नेतुः अपर प्रत्याशी दलस्य महामन्त्री थापा अवोचत् परिवर्तनस्य आकांक्षायाः सैव नयनक्षमेण आत्मविश्वासेन प्रत्याशिता प्रस्तुता वर्तते। महामन्त्रिणा थापाविदस्य समर्थकः दलस्य नेता डाक्टर शेखर कोइराला आत्मभि विभिन्नेषु चरणेषु विमृश्य स्थायित्वस्य नैरन्तर्यस्य च कार्यसूच्या महामन्त्री थापा समर्थितोऽस्तीति अज्ञापयत्। नेकपा एमाले दलेन संसदीय दलस्य नेतरी दलाध्यक्ष केपी शर्मा ओली प्रजितो वर्तते। कमलादिस्थिते नेपाल प्रज्ञा प्रतिष्ठाने ह्य उपविष्टेन संसदीय दलस्य उपवेशेन अध्यक्ष ओली दलस्य नेता प्रचित इति एमाले दलस्य केन्द्रीय कार्यालयस्य सचिव डाक्टर भीष्म अधिकारी अज्ञापयत्। अधिकारिण अनुसारेण दलस्य उपाध्यक्षस्य विष्णुप्रसाद पौडेलस्य प्रस्तावेन अपरोपाध्यक्षस्य सुभाष नेवांग इत्यस्य समर्थनेन च अध्यक्ष ओली संसदीय दलस्य नेतरी निर्विरोधम् प्रचितोऽस्ति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली एमाले दलम् सत्तायम् प्रतिपक्षे वा यत्र कुत्रापि सदपि सुशासनस्य समृद्धेश्च अभियाने सततम् सक्रियम् भवतीति भासते। नेकपा एमाले दलेन ह्यो नेपाल प्रज्ञा प्रतिष्ठाने आयोजिते मेलने अध्यक्ष ओली नागरिक सम्मानस्य सामाजिक स्थायित्वस्य च पक्षे सक्रिय भूमिकया एमाले दलम् दायित्वम् पूरयतीति प्रतिबद्धताम् ज्ञापितवान्। अध्यक्ष ओली दलस्य निर्णयस्य नीतेः अनुशासनस्य आदेशस्य च अनुसारेण संचलनात्मके दृढाभ्यासे स्थातुम् निर्वाचितान् सांसदान् निरदिशत। अध्यक्ष ओली देशम् जनताम् राष्ट्रम् राष्ट्रियताम् सुशासनम् च विहाय अन्येषाम् विषयाणाम् चिन्तनराहित्यात् परिवर्तनस्य आन्दोलनाय क्षतिकारकात् विषयात् दूरमेव स्थातुम् निर्वाचितान् सांसदान् अन्वरुणत्। नेकपा माओवादी केन्द्रेण प्रतिनिधि सभायाः सांसदैः शपथ ग्रहणस्य पश्चादेव संसदीय दलस्य नेता चेष्यते। नवनिर्वाचितैः सांसदैः शपथ ग्रहणस्य पश्चादेव दलस्य नेतोः चयनस्य सर्वकारस्य संगठनस्य च विषये निर्णेष्यते इति माओवादी केन्द्रेण ज्ञापितम् वर्तते। राप्रपा नाम्ना राष्ट्रिय प्रजातन्त्र दलेन संसदीय दलस्य नेतरी दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन प्रचितो वर्तते। काष्ठमण्डपस्य धुम्बा राई वर्तिनी दलस्य कार्यालये ह्य उपविष्टेन राप्रपा संसदीय दलस्य उपवेशेन अध्यक्ष लिङ्गदेन सर्वसम्मत रूपेण दलस्य नेतरी प्रचितोस्तीति दलस्य प्रवक्ता मोहन श्रेष्ठ अज्ञापयत्। नवनिर्वाचितेभ्य प्रतिनिधि सभायाः सदस्येभ्य ज्येष्ठ सांसदेन पशुपति शमशेर जबरा इत्यनेन स्व पौषस्य सप्तमे दिवसे शपथ ग्राहिष्यते। संसद सचिवालयस्य सहायक प्रवक्तुः दशरथ धमलाविदस्य अनुसारेण सांसदस्य जबरा इत्यस्य वयः 81 वर्षाणि 10 दिनानि च प्राप्तम अस्ति त्यतः जबराज ज्येष्ठ सांसद निर्धारितोस्ति। अपर सांसद चित्रबहादुर केसी च अशीते वर्षाणाम दशमासानाम च वर्तते इत्यतः संसद सचिवालयेन जबराज ज्येष्ठ सांसद निश्चितोस्ति। ज्येष्ठ सांसदस्य रूपेण सांसदेन जबराज इत्यनेन अद्य दिवा एकवादने राष्ट्रपतेः समक्षं शपथ ग्रहणस्य पश्चात् स्व संसद भवने प्रतिनिधि सभायाः नवनिर्वाचितेभ्य सदस्येभ्य शपथ ग्राहिष्यते। मन्त्रिपरिषदः सामाजिक समित्या महत्वपूर्णः चतस्रो नीतयः रणनीतयश्च पारितीकृताः सन्ति। गृहमन्त्रिणः बालकृष्ण खाण इत्यस्य संयोजकत्वे विद्यमानायाः मन्त्रिपरिषद सामाजिक समितेः गतदिवसीयोपवेशेन स्वास्थ्य जनसंख्या मन्त्रालयेन प्रस्तुते द्वे, महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयेन प्रस्तुते द्वे चेति आहत्य चतस्रो नीति रणनीतयः पारितीकृताः सन्तीति गृहमन्त्रिणः संचार संयोजकः मधुसूदन भट्टराई सूचयत। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं नेपालस्य कृते संयुक्त अरब इमिरेट्स देशस्य आवासीयः संयुक्त गणतन्त्र तांजानिया गणतन्त्र सर्बिया देशयोः आवासीयतरौ च राजदूताः ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते पृथक् पृथक् विशेष समारोहे स्वस्व पदस्य प्रमाणपत्रं प्रास्तुवन् इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण प्रकाशितायं विज्ञप्तो ज्ञापितमस्ति। अस्य वर्षस्य मानवाधिकार पुरस्कारः वरिष्ठ मानवाधिकारवादिने प्राध्यापकाय डाक्टर कपिलमान श्रेष्ठाय प्रदत्तोस्ति। एवमेव संस्थाया पक्षे अस्य वर्षस्य मानवाधिकार पुरस्कारः मानव सेवाश्रमेण प्राप्तोस्ति। एतयोः पुरस्कारयोः वित्तं लक्ष्यं एकादश सहस्राणि एकादशाधिक शतं च रूप्यकाणि सन्तीति विधि न्याय संसदीय विषय मन्त्रालयेन ज्ञापितं वर्तते। विधि न्याय संसदीय विषय मन्त्रालये ह्य आयोजिते समारोहे विधि न्याय संसदीय विषय मन्त्री ज्ञानेन्द्र बहादुर कार्की वरिष्ठ मानवाधिकार वादिनं प्राध्यापकं डाक्टर कपिलमान श्रेष्ठं संस्थाया पक्षे मानव सेवा समं च अनेन पुरस्कारेण सममानयत। तदवसरे विधि मन्त्री कार्की मानवाधिकारणं संरक्षणस्य संवर्धनस्य च दायित्वं राज्यस्य अस्तित्यतः अत्र नेपाल सर्वकारेण सच्चेष्टेन कार्यं विधीयमानम् अस्तीति अवोचत। तदवसरे पुरस्कृतः प्राध्यापकः डाक्टर कपिलमान श्रेष्ठः संस्थाया पक्षे पुरस्कृतः मानव सेवा समस्य सचिवः सुमन बर्तौला च मानवाधिकार पुरस्कारेण आत्मनः अतिरिक्त दायित्ववाहिनो विहिताः सन्तीति अनुभूति जायतास्तीति अवोचताम् इति समाचारः।